अभिपालयन्तं लक्ष्मीसहस्रशतसंभ्रम सेव्यमानं गोविन्दमादिपुरुषं तमहं भजामि वेणुं क्वनन्तमरविन्ददलयताक्षं वरहावतं समसितं बुधसुन्दराङ्गम् कन्दर्पकोटिकमनीयविशेषशोभम् गोविन्दमादिपुरुषं तमहं भजामि आलोलचन्द्रकलशध्वनमाल्यवंशे रत्नाङ्गदं प्रणयकेलिकलाविलासं श्यामं त्रिभङ्गललितं नियतप्रकाशं गोविन्दमादिपुरुषं तमहं भजामि सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति आनन्दचिन्मयसदुज्ज्वलविग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि आद्यं पुराणपुरुषं नवयौवनं च वेदेषु दुर्लभमदुर्लभम् आत्मभक्तो गोविन्दमादिपुरुषं तमहं भजामि पन्थास्तु कोटिशतवत्सरसम्प्रगम्य वायोरथापि मनसो मुनिपुङ्गवानां सोऽप्यस्ति यत्प्रपदसिंहविचिन्त्यतत्त्वे गोविन्दमादिपुरुषं तमहं भजामि एकोऽप्यसोरचयितुं जगदण्डकोटिं य शक्तिरस्ति जगदण्डचयाय दन्तः दण्डान्तरस्थपरमाणुचयान्तरस्थं गोविन्दमादिपुरुषं तमहं भजामि यत्भावभावित धियो मनुजस्तथैव सम्प्राप्य रूपमहिमा सनयानभूषा सूक्तैरमेव निगम प्रथितैस्तुवन्ति गोविन्दमादिपुरुषं तमहं भजामि गोविन्दमादिपुरुषं तमहं भजामि गोविन्दमादिपुरुषं। रस प्रतिभाविता भेस ताभिर्य एव निजरु तया कला भी गोलोक एव निवसत त्यखिलात्म भूतो गोविंदमादि पुरुषं तमहां भजामि प्रेमांजन चरित भक्ति विलोचनेन संतः सदैव हृदयेषु विलोकयन्ति यं श्याम सुन्दरमचिन्त्य गुणस्वरूपं गोविन्दमादिपुरुषं तमहां भजामि यस्य प्रभा प्रभवतो जगदंडकोटि कोटीश्वशेष वसुदादि विभूति भिन्नम् तद्ब्रह्म निष्कलम् अनन्तम् अशेष भूतम् गोविंदमादि पुरुषं तमहां भजामि गोविंदमादिपुरुषं तमहं भजामि गोविंदमादिपुरुषं तमहं भजामि गोविंदमादिपुरुषं तमहं भजामि यस्य जगदण्डसतानि सूते त्रैगुण्यतद्विषयवेन्वितायमाना सत्त्वावलम्बि परसत्त्वं विशुद्धसत्त्वं गोविन्दमादिपुरुषं तमहां भजामि चिन्मय रसात्मतया मनसु यः प्राणिनां प्रतिफलं स्मरतामुपेत्य लीलायितेन भुवनानि जयति अजस्रं गोविन्दमादिपुरुषं तमहां भजामि ते प्रभावनिचया विहितास्य येन गोविन्दमादिपुरुषं तमहां भजामि सृष्टि स्थिति प्रलय साधन शक्तिरेका छायैव यस्य भुवना निविभर्ति दुर्गा इच्छानुरूपमपि यस्य च चेष्टते सा गोविन्दमादिपुरुषं तमहां भजामि गोविन्दमादिपुरुषं तमहां भजामि। तमहं भजामि गोविंद मादि पुरुषं तमहं भजामि गोविंद मादि पुरुषं तमहं भजामि चिरं यथा दधि विकार विशेष योगा संजायते नहीं तथा पृथगस्ति हेतो यसंभूतां अपि तथा समुपैति कार्या गोविंदमादिपुरुषं तमहं भजामि दीपार्चिरे शांतरम् अभ्युपेत्य दीपायते विव्रत हेतु समान धर्मा यस्ताद्रगेव हि च विष्णुतया विभाति गोविंदमादिपुरुषं तमहं भजामि सरोमकूपा आधारशक्तिमवलम्ब्य परां स्वमूर्तिं गोविंदमादिपुरुषं तमहं भजामि यस्यैकनिःश्वसितकालमथावलम्ब्य जीवन्ति लोम जगदंडनाथ विष्णुर्महां स इह यस्य कला विशेषो गोविंदमादिपुरुषं तमहं भजामि गोविंदमादिपुरुषं तमहं भजामि सकलेषु निजेषु तेज स्वीयं कियत् प्रकटयत्यपि तद्वदत्र ब्रह्माय एष जगदण्डविधानकर्ता गोविंदमादिपुरुषं तमहं भजामि पल्लवं युगं विनिधाय कुम्भ द्वन्द्वे प्रणाम समये सगणाधिराज विघ्नान् विहन्तुमलमस्य जगत् त्रयस्य गोविंदमादिपुरुषं तमहं भजामि अग्निर्मही गगनमम्बुमरोक्तिसश्च कालस्तथात्ममनसीति जगत्त्रयानि यस्मात् भवन्ति विभवन्ति विशन्ति यं च गोविंदमादिपुरुषं तमहं भजामि अचुरेश सविता सकल ग्रहाणां राजा समस्त सुर मूर्तिरशेष तेजा यस्याज्ञया भ्रमति संभृत काल चक्रो गोविंदमादि पुरुषं तमहं भजामि श्रुतयस्तपांसी ब्रह्मादिकीटपतगा वधयश्च जीवा यद्दत्तमात्रविभव प्रकटप्रभावा गोविन्दमादिपुरुषं तमहं भजामि यस्तन्द्रगो कर्म बंधानुरूप फल भाजन मातनोति कर्माणि निर्दहति किन्तु च भक्ति भाजम् गोविंदमादि पुरुषं तमहं भजामि यम क्रोध काम सहज प्रणयादि भीति वात्सल्य मोह गुरु गौरव सेव्य भावे संचिन्त्य तस्य सदृशिं तनुमापुरेते गोविंदमादि पुरुषं तमहं भजामि तमहं भजामि गोविंदमादि पुरुषं तमहं भजामि गोविंदमादि पुरुषं तमहं भजामि गोविंदमादि पुरुषं तमहं भजामि श्रियकान्ताकान्तः परमपुरुषकल्पतरवो द्रुमा भूमिश्चिन्तामणि गणमयी तोयम् अमृतम् कथागानं नाट्यं गमनमपि वंसी प्रियसखी चिदानन्दं ज्योति परमपि तत् आस्वाद्यमपि च स यत्र क्षीराब्धिः स्रवति सुरभिभ्यश्च सुमहान् निमेः सार्धाख्यो वा व्रजति न हि यत्रापि समयः भजे श्वेतद्वीपं तमहम् इह गोलोकम् इतियम् विदन्तस्ते सन्तः क्षते विरलचारा कतिपये।